ఒక పెద్ద మహాకాయ కోటి సరసన నిర్విఘ్నంకు మేదేవ సర్వ కార్యేషు సర్వదా సరస్వతీ నమస్తుభ్యం వరదే కామరూపిణి విద్యారంభం కరిష్యామి ధీర్గోతిని సదా గురుర్బ్రహ్మ గురువిష్ణు గురుదేవ మహేశ్వర గురు సాక్షాత్ పరబ్రహ్మ తస్మై శ్రీవరవే నమః. నమస్సర్వేభ్య స్వాగతం. అస్మాకం పాణిన్య వ్యాకరణ వర్గే సర్వేషాం ప్రవేకవారం సుస్వాగతం. అస్మాకం అధ్యయన విషయ అస్తి తుదాదిగణ తస్మిన్ ఇత్ విశేషదాతవః ఇతోపి విశేషదాతవః ఇత్యస్మిన్ అత్ర అస్మాకం పఠనం జాయమానమాసీత్. తత్ పూర్వం ఏకవారం పునః ఏకవారం కిచిత్ పంచదశ దినాతీతః ఇతి కృత్వా కిచిత్ పునఃస్మరణం కుర్మః, అనంతరం ఫలం ప్రతి గచ్చేమ. తుదాదిగణః సర్వే జానంతి తుదాదిగణః ఇతి తత్ర వికరణప్రత్యయ షా ఇతి వికరణప్రత్యయ అస్తి. షా ఇతి వికరణప్రత్యయ కిత్ అస్తి అతః తత్ర గుణనిషేధః భవతి. కిత్ కిత్ కృత్వా తత్ర విశేషకార్యాణి సంతి. ఏకమస్తి గుణనిషేధః సర్వే జానంతి నీతి చ ఇతి సూత్రేణ తత్ర గుణ న భవతి. యద్యపి షా ఇతి వికరణప్రత్యయ సార్వత్రికం అస్తి షిత్ అస్తి పరంతు సార్వత్కారత్వ ఇత్యనేన గుణః న భవతి. కి నీతి చైత్య సూత్రం కిమర్థం చేత్ సార్వమపి నిత్వత్ కార్యం కరోతి అతః నీతి చైత్య సూత్రేణ గుణనిషేధః భవతి ఇతి అస్తి. ద్వితీయమస్తి అనిదిత ధాతూనాం ఉపాదాయాం న లోపః నకార లోపః భవతి అనిదిత్. ఇదిపై ఇదిత్ నాస్తి చేత్ తత్ర యది తత్ర ఉపాదాయ నకార అస్తి యా నకార ఇదిత్ కృత్వా నాస్తి ఇదితో నుందాతో ఇత్యనేన న ఆగతం పరంతు మూలే ఏవ ఇతి అస్తి చేత్ తస్య నకారస్య లోపః సామాన్యతః భవతి సర్వత్ర భవతి. ఏతత్ సార్వత్రిక నియమమస్తి తత్ర ధాతూనాం లోపః భవతి ఇది. పరంతు తత్ర నితిపరే యది నితిపరే తత్ర అనిది నకారస్య లోపః భవతి ఉపాదాయాస్తి తస్య నకారస్య లోపః భవతి. పరంతు అత్ర తుదాదిగణే నుమా యది అనిదిత నకారః అస్తి ఉపాదాయం నకారః అస్తి చేదపి కిం భవతి తత్ర తత లోపః భవతి కథం లోపః భవతి. పరంతు ఏక వాక్యకేన పునః నకారః విధీయతే షే తుంఫాదీనాం నుం వాక్యః ఇతి ఇత్యనేన నుమాగమః పునః విధీయతే నుమాగమః పునః విధీయతే. అతః సామాన్య ఏతత్ సామాన్య నియమమస్తి అనిదిత ఉపాదాయ నకారస్య లోపః భవతి నితి పదే. పరంతు షే తుంఫాదీనాం ఇత్యనేన నుం వాచ్యః ఇతి వాస్తికేన తత్ర పునః నకారస్య ఆగమః భవతి ఇది అస్తి. ఏతత్ సామాన్య నితి నితి పదే సామాన్య సూత్రమస్తి. నకారస్య లోపః భవతి సంప్రసారణం భవతి ఇది అస్తి. సంప్రసారణం భవతి కేచన ధాతూనాం తత్ర సంప్రసారణం భవతి ఇది అస్తి. సంప్రసారణం వయం జానీమః యథా యణ్ సంధౌ యథా భవతి తస్య విపరీతక్రమః ఏవ సంప్రసారణమస్తి. ఈగణ సంప్రసారణం ఇక్ యణ్ స్థాన ఇక్ వర్ణః ఆగచ్చతి యత్ సంప్రసారణం భవతి ఇది జానీమః. గ్రహి త్యాగైవతి వష్టి విచతి పృచ్చతి బృజ్యతి నాం నితి చాతి సూత్రేణ తత్ర వృచ్చతి పృచ్చతి బృజ్యతి తత్ర వ్యయి వై అత తత్రాపి సంప్రసారణం భవతి కితి పరే అతః షిత్తి నిత్వత్ కార్యం కరోతి అతః తత్రాపి సంప్రసారణం భవతి. అస్మిన్ సూత్రే యాని ధాతవ సంతి తేషు తుదాదిగణే అపి సంతి కేచన ధాతవ తుదాదిగణ సంతి అస్మిన్ గ్రహీజ్యా ఇత్యస్మిన్ సూత్రే తేషామపి సంప్రసారణం భవతి ఇది అస్తి. అపి చ సామాన్య కార్యమస్తి వయం జానీమః తత్ర యత్ర యత్ర సామాన్య ధాతూనాం యత్ర ఉపాదాయం అథవా అంగాంతే ఇకారః అస్తి అథవా ఇగంత ధాతు నాస్తి చేత్ అకారాంత ధాతు అస్తి చేత్ అథవా ఉపాదాయం ఇక్ ఉపాదాయం యత్కిమపి భవతు తత్ర సామాన్య కార్యమస్తి. పరంతు తత్ర విశిష్ట కార్యం అస్తి వయం దృష్టవంతః ఇగంత ధాతూనాం ఇదుపద ఉదుపద ధాతూనాం కిం భవతి క్షమ్యతాం ఇగంత ధాతూనాం ఇగంత ధాతూనాం కిం భవతి ఇది. ఇగంత ఇగంత ధాతు అస్తి చేతి కిం భవతి ఇది. ఏకమస్తి అచిష్ట ధాతు బ్రువాం भुवाङ्ग् युवोः इयङ् भुवङ्गौ इति भवति, इकार उकारयोः इयङ् भुवङ्ग् आदेशः भवति, इकार अस्ति चेत् इयङ् आदेशः इय इति भवति, इयङ् इति अनेकाल् अस्ति परन्तु नेत्वकारणेन अन्तिम अन्तिम अल् स्थाने एव तस्य आदेशः भवति इयङ् आदेशः। यथा रि इति धातुः अस्ति, रि इति अस्ति इदानीं रि इति धातुः अस्ति, इगन्धधातुः सुधादिगणीयधातुः अस्ति, इदानीं ष इति विकल्पस्य अस्ति, ष इति वर्षकारश्चित् अस्ति, आ इति रियोग अ इति अस्ति, इदानीं गुणः नाम विदुमर्हति नित्वत् इति कारणेन, परन्तु इयम् आदेशः भवति अचिपदे इयम् आदेशः, अतः इय इति भवति, ऋ इत्यस्य इय रिय इति रियति इति भवति इति अस्ति। तथैव तत्र उकारान्त उकारान्तधातुः अस्ति चेत् किं भवति, तत्र उकार अथवा उकारान्त धातुः अस्ति चेत् उवङ् आदेश उ इति आदेशः भवति। यथा किमस्ति तत्र गु इति धातु कश्चन धातुः अस्ति सामान्यतः गु इति गुयोग अ, इदानीं गुणः न भवितुमर्हति नित्वित् कारणेन, अतः तत्र किं भवति अचिष्णुधातु ब्रुवाङ् योः इयङ् ओङ्गो इकार उकारयोः इयङ् अथवा उवङ् आदेशः भवति, अतः अत्र उ इति अस्ति उ उ इति आदेशः भवति, उ उ गकार उ गुव इति गुव योग अ भुवति इति भवति। एतद् एतत् सामान्यसूत्रमस्ति अचिष्णुधातु ब्रुवाङ् ब्रुवाङ् युवोः इयङ् ओङ्गौ इति अचिपरे इयङ् आदेशः उवङ् आदेशः इति भवति। अग्रे इदानीं तिगन्तदातु इकार उकार वयं दृष्टवन्तः, इकार भवतु दीर्घ इकार भवतु उकार भवतु दीर्घ उकारः भवतु, ऋकारान्तदातूनां किं भवति, अत्र वयं दृष्टवन्तः रियङ् षङ्ग्लिङ् षङ्ग्लिङ् षु इति रियङ् रिङ् रिङ् षङ्ग्लिङ् षु इति रिङ् आदेशः भवति, षादिकन्दप्रत्यये पदे यक् प्रत्यये पदे, अपि च आन्तदातुक लिङ्ग् लकारे तत्र वयं जानीमः लिङ्ग् लकार क्षम्यतां तत्र विधिलिङ्ग् लकार विधिलिङ्ग् लकारे तत्र आशीर्लिङ्ग् लकारे आर्धधातुकलिङ्ग् लकारः आशीर्लिङ्ग् तत्र रिङ् आदेशः भवति ऋकारान्तधातूनाम् इति अस्ति। यथा मृ इति धातुः अस्ति मृयोग शप् इदानीं किं भवति ऋकारस्य किं भवति रिङ् आदेशः भवति, रिङ् अत्रापि रिङ् इति रि इति अनेकाल् अस्ति नित् अस्ति कृत्वा अन्तिमस्वरस्य स्थाने भवति अलो अलोन्तस्य इत्यनेन अन्तिमवर्णस्य स्थाने भवति, तत्र किं भवति निच्च इति सूत्रेण अन्तिम अन्तिम अल् स्थाने एव भवति, ऋकारस्य स्थाने रि इति आदेशः, इदानीं मृ इति भवति, इदानीं मृ इति अभवत्, इदानीं मृ इति इदं धातुः एव अस्ति आदेशः अस्ति खलु ऋकारस्य स्थाने रि इति आदेशः, तदपि यद्यपि तत्र रूपपरिवर्तनम् अभवत् परन्तु धातुः एव, अतः इदानीं तत्र किं भवति इदानीं तत्र मृ इति अस्ति मृ इति इदानीं इगन्तधातुः अस्ति, अतः इयम् आदेशः भवति इयम् इय इति म्रियते इति भवति, अतः तत्र ऋगादेशः भवति रिङ् षकार रिङ् आदेशः षकारे पदे षकार क्षम्यतां ष प्रत्यये पदे यक् प्रत्यये पदे अपि च आशीलिङ्गि तत्र रिङ् आदेशः पदे ऋकारान्तधातूनाम्। अग्रे दीर्घऋकारान्त अस्ति चेत् किं भवति इति वयं सामान्यसूत्रमस्ति ऋत इद्धातोः ऋत इद्धातोः इति तत्र ऋद्धीकरकारान्तधातूनाम् इद् आदेशः भवति इत् इत्युक्ते इ इति आदेशः रस्वैकारः आदेशः भवति, कृ इति धातुः अस्ति कृ इति धातुः, इदानीं किं भवति ऋकारस्य स्थाने तत्र इकारादेशः भवति इ इति आदेशः भवति ऋत इत् अस्ति, इदानीं ऋकारस्य स्थाने इकारः भवति, इदानीं कि इति भवति कि इति इदानीं ऋकारस्य स्थाने इति कृत्वा उरण् रपः इत्यनेन यत्र ऋकारस्य स्थाने तत्र अणादेशः भवति चेत् किं भवति रेपशिरस्कः भवति रेपः आगच्छति अतः इर् इति भवति ऋकारः भवति किर किर् योगः किरति इति भवति हृदयधातोः इत्यनेन तत्र एतत् सामान्यमस्ति, सामान्यसूत्रमस्ति. किमस्ति अचिष्टधातुप्राङ् इयङ्गुवङ्गौ अपि च रिङ्गादेशः षविकरणप्रत्यये परे अपि च ऋत इद्धातोः इत्यनेन इकारः इति एतत् सामान्यसूत्राणि सुधादिकरणस्य. इदानीं तत्र सुधादिगणे विशेषदातवः सन्ति, तेषु तत्र यथा वयं दृष्टवन्तः भुवादिगणे दिवादिगणे तत्र धात्वादेशः भवति कुत्रचित्. धात्वादेशः कः इति एकमस्ति, एकं सूत्रमस्ति, दीर्घसूत्रमस्ति, पाघ्रामास्तां नादान् दृश्यति सतिशतसदां पिबजिग्रतमतिष्ठमनयच्च पश्यदच्च दौशीयसीदाः इति दीर्घसूत्रमस्ति. तत्र अष्टमाध्याय तृतीयपादस्य अष्टसप्ततितमं सूत्रमस्ति, धातुः अस्ति. इदानीं तत्र एते अत्र षद् सद् इति षदुल्ृ अपि षदुल्ृ षदुल्ृ इति तत्र षकार मूर्धन्यषकारः अपि षदुल्ृ इति धातुद्वयमस्ति अस्मिन्. तस्य अन्ये तत्र भुवादिगणे धातवः सन्ति तत्र. इदानीं तत्र अस्मिन् सूत्रे षदुल्ृ अपि च षदुल् षकारः तत्र तालव्यषकारः एकः मूर्धन्यषकारः षदुल्ृ षदुल्ृ इति तेषां तत्र आदेशः भवति. षदुल् इति मूर्धन्यषकारस्य किं भवति तत्र किं भवति सीद इति भवति. षदुल्ृ इत्यत्र षकारस्य सकारः षद् इति भवति. षदुल् इति लृकारस्य लोपः भवति, षकारस्य धात्वादेशः साहित्येन सद् इति सद् सद् सदा सदां किमस्ति सीदा इति तत्र सीद सीद आदेशः भवति. षद् इत्यस्य सीद इति भवति सीदयोग अ. इदानीं सीद इति अ इति अस्ति. इदानीम् अकार अकार सीदा भवति वा न, अत्र अस्ति अतो गुणे अतः अकारान्तात् तत्र अपदान्त अकारस्य तत्र गुणवर्णे परे तत्र किं भवति तत् न षदुल् इति तत्र तद् भिन्नमस्ति. एतत् यत् सद् धातोः षदुल् इत्यस्य इदानीं षदुल् इत्यस्य सद् सद् धातो सद् धातोः सीद इति भवति अतो गुण इत्यनेन तत्र पूर्वपरयो पररूपादेशः भवति सीद् योग आ इति सीद सीदति इति रूपम् अस्ति षदुल्ृ इत्यस्य. इदानीं तत्र तालव्यषकार षदुल्ृ इत्यस्ति षद् तत्र किं भवति षद् इत्यस्य किं भवति षी आदेशः. यत् षद् इति अस्ति तत्र षीय आदेशः भवति अतः तत्र षीय इति षीययोग शप् श इति विकल्पस्य अतो गुण इत्यनेन शीय इति शीय शीय शीयते इति अस्ति. एतत्तु आत्मनेपदि अस्ति अतः शीयते इति रूपं भवति इति अस्ति तत्र. एतत् प धात्वादेशः अपि च अन्यदस्ति, वयं दृष्टवन्तः गम् इत्यस्य गच्छ इति आदेशः भवति इति सूत्रं दृष्टवन्तः भुवादिगणे. इषु गमयमां चः इत्यनेन तत्र इष् इति धातुः इत्यस्मिन् इष् इति धातुः तत्सुधादिगणीयधातुः अस्ति. गम्यं तत्र तत्तु भुवादिगणीयधातुः अस्ति अतः इष् इत्यस्य किं भवति चः तत्र चकारादेशः भवति. चकारस्य चकारालो तस्य चकार इच् इति भवति. इदानीं किं भवति इच् योगः इदानीं तत्र छेच इति सूत्रेण तत्र 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 च तुगागमः भवति. तुगागमः भवति इच् इत् च इत् च इति तत्र. इदानीम् अनन्तरं किं भवति स्तोत्र नास्तुः इत्यनेन चकारः भवति इच्च इच्छयोगः इच्च इच्छति इति रूपम् इति अस्ति. इषु गम्यमां च इत्यनेन चकारादेशः भवति. चकारादेशः भवति क्षितिपदे चकारे पदे अतः क्षितिपरे एव. अतः पश्यतु तत्र इदानीं कर्मणि प्रयोगे भवति इष् इत्यस्य रूपं किं कर्मणि प्रयोगे इच्छति इत्यस्य कर्मणि प्रयोगे किं भवति रूपं कोऽपि वदति वा?
ईष्यते
ईष्यते ईष्यत् तत्र षकारः अत्र चकारादेशः न भवति तत्र तादृशः अस्ति. अग्रे इदानीं सम्प्रसारणदातवः सन्ति, चत्वारः सम्प्रसारणदातवः सन्ति, तत्र ग्रहिज्या व्ययि वदि वष्टि विचति पृच्छति पृच्छति पृच्छतीनाम् इति च इति सूत्रेण तत्र सम्प्रसारणं भवति। तत्तस्मिन् अस्मिन् सूत्रे तत्र व्रश्च प्रच्छ व्रश्च इति धातुः, प्रच् इति धातुः, ब्रत् इति धातु, ब्रत् इति पाके इति तत्र व्यच् इति अस्ति तत्र तत्र तदपि किमस्ति व्यच् इति धातुः अस्ति, तदपि सुदादिगणीयधातुः अस्ति। अतः चत्वारः धातवः सुदादिगणीयधातवः एतेषु सर्वत्र सम्प्रसारणं भवति। व्रश्च इत्यस्मिन् रेपत्स्थाने रेपत्स्थाने मूर्धनिरकारः वृ इति वृ ऋकारः अनन्तरम् अ इति अस्ति, तत्र किं भवति तत्र सम्प्रसारणाच्च इत्यनेन तत्र अकारस्य तत्र द्वयोः स्थाने पूर्वपर्यस्थाने पूर्वरूपादेशः, अतः व्रश्च अतः वृश्चति वृश्चति इति भवति। तदेव पृच्छ इति धातु, पृच्छ इति धातुः अस्ति, तत्र प्रच्छ इति प्रच् इति धातुः इदानीं रेपस्थाने तत्र ऋकारः मूर्धन्यऋकारः अनन्तरं सम्प्रसारणाच्च इति सूत्रेण पूर्वरूपादेशः पृच्छति इति रूपं। बृज इति ब्रश्च इति ब्रज् इति धातुः अस्ति, तत्रापि रेपस्थाने तत्र मूर्धन्यऋकारः भृ भृ ऋक् मूर्धनऋकारः अकारयोः पूर्वरूपादेशः भ्र भृ भृज्ज। इदानीं तत्र सकार जकार अस्ति, अतः षकारः भवति स्तोत्रादि इति सूत्रेण। अनन्तरं षकार जकार अस्ति, षकारः जल्वर्णः अस्ति, जलां जस् जषि इत्यनेन तत्र जस्त्वं भवति, जस् जषि पदे जस्त्वम् अस्ति, अतः बृज्जति इति रूपं भवति। व्यच् इति अस्ति, व्यच् इति धातुः अस्ति, इदानीं तत्रापि सम्प्रसारणं भवति अतः, परन्तु सम्प्रसारणस्य सम्प्रसारणे वर्णः तत्र वकार यकार कस्य भवति, न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारं न भवति, अपरस्य भवति। अतः किं भवति, व्यच् इत्यस्मिन् यकारस्य सम्प्रसारणं भवति, अतः य इत्यस्य ई भवति, ई त्वग अ इत्यत्र सम्प्रसारणाच्च इति सूत्रेण पूर्वरूपादेश वि इति भवति, विचति विचति इति भवति तत्र, तादृश भवति। इदानीम् अग्रे नुमागमः सामान्यतः किमस्ति, वयं दृष्टवन्तः नुमागमः कुत्र भवति इति तोमनुं धातोः इति सूत्रेण सर्वत्र वयं दृष्टवन्तः, पूर्वमेव धातुविज्ञाने पठितवन्तः यत् इदित् अस्ति, इकारः लोपः अस्ति, मूले इकारः आसीत् तस्य लोपः भवति, इत्संज्ञासूत्रेण लोपः भवति चेत् नुमागमः भवति इति अस्ति, इदितो नुम् धातो इत्यनेन नुमागमः भवति। यथा वदि इति धातु अस्ति, वदि इति तत्र इकारस्य लोपः भवति, इकारः ईद् अस्ति इति कृत्वा उपदेशनाशक इत्यनेन वद् इति भवति, इदानीम् इकारलोपः अस्ति इति कृत्वा तत्र नुमागमः भवति, इदि लोनुं धातोः इत्यनेन नुमागमः भवति। परन्तु अत्र पश्यतु मुच अत्र इदि नास्ति चेदपि नुमागमः भवति विशिष्टसूत्रेण, अत्र सुदादिगणे मुचादि मुचादयः इति कश्चन अन्तर्गणः अस्ति, अतः तस्य तस्मिन् स्थितस्य तस्मिन् अन्तर्गणे पश्यतु ता सुदादिगणमस्ति गणः अस्ति, तस्मिन् मुचादि इति क इति अन्तर्गणः अस्ति, विदिन्द ग्रूप् देर् इस् सब् ग्रूप्, तत्र अष्टदातवः सन्ति, तत्र मुचिल् षिच् विदिल् कित् पिश् कृत् लिप् लुप् एते तत्र अन्तर्गणे अष्टदातवः सन्ति, तेषु तत्र नुमा इदित् नास्ति, इदितः न इदितः न एते दातवः इदितः न, परन्तु क्षेमुचादीनाम् इति सूत्रेण नुमागमः भवति। क्षेमुचादीनां मुचादीनां मुचादिगणस्य क्षेपरे शक श इति विकर्णप्रत्यये परे नुमागमः भवति, अन्यत्र न भवति। अतः मुच् इति अस्ति, मुचिल् इति मोक्षणे इति मुक्तीकरणे मुक् मुक्तिः खलु तेनैव भवति मुञ्च् इति धातुः एव मुक्तिः भवति इदानीं मुञ्च् इति धातुः अस्ति अतः तत् मुचादि अन्तर्गणः अस्ति मुचादि मुच् इति आदिः यस्य सः मुचादिः इति मुचादि अन्तर्गणः अस्ति अतः मुच् इति धातुः अस्ति इदानीं तत्र नुमागमः भवति नुमागमः भवति इदानीं तत्र नुमागमः मि इति नुम् इति आगमः मित् अस्ति कुत्र भवति इदानीम् अचो मित् अस्ति अचः अन्त्यात् परः अन्त्यात् अचः परः भवति अन्तिम अच्परः इदानीं मुच् इति धातुः अस्ति अतः मकार उकार चकार अन्तिम उकार अस्ति उकार अतः तत्र एव भवति उपधायः भवति मुञ्च् इति भवति नुमागमः मुञ्च् इदानीं नकारः अस्ति मुञ्च् इति अस्ति इदानीं तत्र अन्यसन्धिकार्यं भवति वयं जानीमः नश्च पदान्तात् झलि इत्यनेन तत्र तत्र अनुस्वारः भवति अनुस्वारस्य यै परसवर्ण इत्यनेन परसवर्णादेशः भवति मुञ्च् अतः मुञ्च् योगः तत्र मुञ्चति इति भवति अतः षे मुचादिनाम् इत्यनेन ष इति विकरणप्रत्यय अन्यत्र न भवति अतः अत एव किं प्रत्ययः अस्ति अथवा वक्ता प्रत्यय मुञ्च् योग वक्ता प्रत्ययः किं भवति मुक्तः इति भवति मुक्तः इति अत्र मुङ्क्तः इति तत्र नुमागमः न भवति अतः केवलं शिकरणप्रत्यये परे एव नुमागः भवति अन्यथा न भवति इति सिञ्चति इति भवति विन्दति विन्दति इति भवति तत्र तादृश तत्र सर्वत्र नुमागमः भवति खिद् अस्ति खिन्दति इति भवति पश्यतु खिद्यते इदानीं पश्यतु खिद् योग यक् विकरणप्रत्यय इदानीं तत्र कर्मणि प्रयोगे खिन्दति इदानीं कर्मणि प्रयोगे खिद् योग यक् विकरणप्रत्यय यक् इति अस्ति तत् वृष इति विकरणप्रत्ययः नास्ति अतः तत्र नुमागमः न भवति खिद्यते न भवति खिद्यते इति भवति खिद्यते इति भवति अतः श इति विकरणप्रत्यये एव भवति अग्रे पिष अस्ति पिंशति इति भवति कृत् इति अस्ति क्रन्तति कृन् कृत् क्रन्तति इति लिप् लिम्पति लुप् लुम्पति तत्र एते अष्टदातवः तेषु क्षेमुचादीनाम् इत्यनेन नुमागमः भवति इति अस्ति तत्र सूत्रसन्धिद्वयस्य एकमस्ति किमस्ति मिदत् अन्त्यात् परः इति सूत्रं वदति अन्तिमच् परे भवति इति अनन्तरं नश्च पदान्तजलि अपि अनुस्वारते परसवर् इति सूत्रद्वयम् एतत् अष्टमाध्याये सन्ति त्रिपाद्याः सन्ति अतः क्रमेण करणीयम् अस्माभिः प्रथमं तत्र नश्च पदान्तजलि इति प्रथमं कार्यमस्ति तृतीयपादे अस्ति अष्टमाध्याय तृतीयपादस्य किमस्ति तत्र चतुर्विंशतितमं सूत्रमस्ति 24 अस्ति अनन्तरम् अनुस्वर्ते परस्वर्ण इति चतुर्थ अध्याये चतुर्थपादे अस्ति क्षम्यताम् अष्टमध्याय चतुर्थपादे अन्तिम प्रायः अन्तिम नास्ति लास्ट् अत्र 58 तत्र अष्टपञ्चाशत्तमं सूत्रमस्ति चतुर्थ अष्टमध्याय चतुर्थपादस्य षट्पञ्चाशत् सूत्रम् अस्ति अनुस्वर्थे परसवर्णः सन्धिकार्यमस्ति इदानीम् एतावत्पर्यन्तं वयं पठितवन्तः गतकक्षायां क्षेमुचादीनाम् इत्यस्य विषये पठितवन्तः इदानीम् अत्र कश्चन प्रश्नः अस्ति वा अस्तु अग्रे गच्छामः इदानीं तत्र इदानीम् एक अन्यदेकमस्ति एक कार्यमस्ति सन्धिकार्यम् अस्ति अत्र पठेमः इदानीं तत्र एकनिमिषः निरञ्जना भगिनी पठति वा तत्र चतुर्थः बिन्दुः अस्ति सन्धिकार्यमिति तत्र सुदादिगणे इतोपि विषये दातव्य इत्यस्मिन् चतुर्थः श्रूयते वा निरञ्जना भगिनी हा न श्रूयते भगिनि भवत्याः ध्वनिः न श्रूयते
श्रूयते
इदानीं श्रूयते सन्धिकार्यम् इति अस्ति खलु
श्रूयते
श्रूयते श्रूयते इदानीं श्रूयते सम्यक् श्रूयते
सन्धिकार्यं सन्धिकार्यम् ओलश्चि व्रीडायां लज्जितो भवति लश्च पुनश्च शुद्धौ निर्मलो भवति स्वच्छो भवति स्नानं करोति जले निमग्नो भवति मश्च ओलश्चि लश्च उपदेशे च अनुनासिक इत्यनेन ओकारस्य तथा इकारस्य लोपः भवति लश्च स्तोः शुनाश्चोः इत्यनेन लश्च भवति लश्च जलां झषि झषि इत्यनेन लज्ज भवति लज्जयोगस्य विकरणप्रत्ययः लज्ज इति अङ्गं लज्जयोगते लज्जते इति रूपं भवति
अत्र किमपि कार्यं नास्ति केवलं
झष झषि जलां स्थाने झषादेशो भवति झषि परे स्थाने अन्तरतमः इत्यनेन झषु वर्णेषु वर्णन् केवलं सन्धिकार्यं भवति अत्र जलस्थाने झषि परे झषादेशो भवति स्थाने अन्तरतमः इत्यनेन झषवर्णेषु वर्णनिर्धारणं जलां षष्ठ्यन्तं झषः प्रथमान्तं झषि सप्तन्तं त्रिपदमिदं सूत्रं झषप्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः तयोर्वा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जलां झषि संहितायाम् अन्य धातु अस्ति तुमश्चो मश्च उपदेशे च अनुनासिक इत्यनेन मश्च अवशिष्यते मश्च
वर्णसमुदायस्य लोपः भवति ई संज्ञा भवति अनन्तरं लोपः भवति टु इत्यस्य मश्च
चकारस्य लोपः भवति
इति सूत्रेण इकारस्य लोपः उपदेशः अज अनुनास्ति इति भवति ओ इति ओतश्यनि इति सूत्रेण ओकारः लोपः भवति वा ओ प्रथम
ओताशनि नास्ति खलु ओकारस्य उपदेशानुनासिक इत्यनेन भवति ओतः शनि तद् भिन्नमस्ति ओतः शनिपरे भवति श इति विकरणपत्ये तत् युवादिगणे वयं पठितवन्तः न तु अत्र अत्र श इति अस्ति वा शनि तद् नास्ति खलु
अत्र परन्तु अस्तु अनन्तरं लज् योगः शकारः अस्ति खलु लज् चतुर्थपङ्क्तिः लज् योगः शकारः तत्र लज् इति अङ्गं शकारः
शकारः किमस्ति तत्र सुधादिगणः अस्ति खलु कः
विकरणप्रत्ययः
शकारकेन सूत्रेण भवति शकारकेन सूत्रेण लोपः भवति सत्यम् अवगतं खलु
अतः लज्ज योगः ते धन्यवादः
अस्तु 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 तत्र किञ्चित् अत्र बहु पूर्वं वयं पठितवन्तः खलु अतः किञ्चित् वयं सामान्यतः ओकारस्य ओदितदातवान् सन् तत्र अन्यत्र कार्यमस्ति ओदित् किमर्थम् अन्य वर्णस्य अन्य स्वरस्य प्रयोगः न कृतः तत्र ओदित् तत्र कुत्रचित् अन्यत्र ओकारस्य कार्यमस्ति अतः एव तत्र ओ इति तेन योजितमस्ति अतः अस्तु अग्रे अस्तु अत्र इदानीं मज्जति मज्जति इति भवति अत्र सामान्यम् अस्तु धन्यवादः भगिनि अतः तत्र वयं जानीमः एव स्तोस्तु नाश्चुः अपि च जलां झषि इति जस्त्वं वयं जलां जस्वन्ति इति एकं सूत्रमस्ति तत्तु तृतीयपादे अस्ति तृतीयपादे द्वितीयपादे प्रायः एतत् तत्र पदान्ते तस्य इदानीं तत्र अपदान्ते किं भवति जलां झषि इति सूत्रेण जस्त्वं भवति परन्तु तत् तत्पूर्वं तत्र स्तोश्चुनाश्चुः इत्यनेन तत्र तत्र प्रथमं कार्यं भवेत्। यद्यपि सकारः अपि जलवर्णे अस्ति परन्तु जलान्तर्जशि तद् न भवति, परन्तु प्रथमं स्तोश्चुनाश्चुः कार्यं करणीयम् अस्माभिः। किमर्थम् इति तत्र त्रिपाद्यमस्ति इत्येव क्रमेण करणीयम् अस्माभिः। यद्यपि लश्च इति तत्र एव जलान्तर्जशि इति कर्तुं शक्यते, वयं कर्तुं शक्यते खलु जलां गच्छति इति कर्तुं शक्यते, परन्तु न भवति। हा अतः तत्र पूर्वत्राचिन्तम् इत्यनेन तत्र न भवति, क्रमेण करणीयमस्मि अस्माभिः। अतः लज्जते इति भवति। धन्यवादः। अन्तिमः एकः अस्ति, अन्तिमः अस्ति तत्र आयप्रत्ययः इति कश्चन तत्र सनादि प्रत्ययः एकवारं पृष्टं। धन्यवादः। इदानीं तत्र नरसिंहहेगडे महोदय आयप्रत्ययः पञ्चमः बिन्दुः
जलां दशि आयप्रत्ययः णिपणिभ्य आयः पण एतेभ्य धातुभ्यः आयप्रत्ययो भवति पार्थे ऋपुश्चिश्चिश्चनिश्च तेषाम् इतरेतरद्वन्द्वः ऋपु रूपविच्छि पणिपणिनेन तेभ्य ऋपु रूपविच्छि पणिपणिभ्यः पञ्चम्यन्तम् अयः प्रथमान्तं सुपदमिदं सूत्रं प्रत्ययः परश्च इत्यनयोः अधिकारः धातुरनेकाच हलाधे क्रियासमाभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः निवृत्तिहेतुसूत्रम् उपो धूपविच्च पणिपणिभ्यः धातुभ्यः अयप्रत्ययः परश्च। अत्र अयप्रत्ययस्य आदेशः भवति उपो धूप तेषां पञ्चधातु आय आय इति प्रत्ययस्य आदेशः भवति।
अतः अस्मिन् अत्र विच्छ इति अस्ति, अत्र गुपधूपविच्छिपणिपणिभ्यः आयः इत्यस्मिन् विच्छ विच्छि इति अस्ति खलु, अत्र तत्र योजितमस्ति अत्र विच्छि इति, तदेव विच्छ इति अस्ति। इक्ति पौधातुरुद्देशित्यनेन तत्र ईकारः योजितमस्ति, अतः विच्छि इति इत्युक्ते विच्छ एव धातुः अस्ति, तस्य विच्छ इत्यस्य आयादेशः भवति इति अस्ति। अग्रे पठतु।
विच्छयोग आय विच्छाय नराद्यन्ता धातुः इत्यनेन धातुसंज्ञ इच्छाय इति धातुः, कर्तृत्वे सार्वधातुके परे त्रिधातुभ्यः इच्छाय योग अ ततो गुणे इत्यनेन पूर्वपरयोः पूर्वरूपम् एकादेशः विच्छाय इति अङ्गम् इच्छाय योगति इच्छायते। विच्छ इति धातुः पश्यामः चेत् तत्र आय आय इति आदेशः भवति, इच्छाय इति भवति, अनन्तरं उत्तरणप्रत्ययः इति आवश्यते इच्छाय योग अ। अत्र सवर्णदीर्घसन्धिः न भवति, अतो गुण इत्यनेन पूर्वरूप एकादेशः भवति, विच्छायति इति रूपं भवति। अत्र आयप्रत्ययो भवति पार्थे इत्युक्तं स्पष्टीकरणार्थं, यथा नित्यप्रत्यये चुरादिगणे इमौ प्रत्ययौ धातौ तस्य अर्थपोषणं करोति, नान्यत् किमपि नाम अनयोः प्रत्ययो संयोजनेन धातोः अर्थः न परिवर्तते, केवलं रूपस्य साधनार्थम् अयं प्रत्ययः उपयुज्यते पाणिनिना। धातुः अस्ति विच्च रूपम् अस्ति विच्छयति, तस्य साधनार्थं मया प्रत्यय अपेक्षितं, धातोः अर्थः किमपि न परिवर्तनं भवति, केवलं रूपसिद्धीकरणं करणार्थ एव तस्य आयप्रत्ययस्य आगमनं भवति.
अस्तु, तदेव सामान्यसनाद्यन्ता दातवः सनादिप्रत्ययोजनेन तेषां विशिष्ट अर्थः अस्ति, सामान्यतः सनादिप्रत्ययोजनेन तत्र विशिष्ट अर्थः भवति. इदानीं सन्पत्य पिपठिष्यति, पठितुम् इच्छा अस्ति, पिपठिष्यति पिपठिष्यति इति तादृश इच्छा इच्छा अस्ति, तत्र तादृशविशेष अर्थः अस्ति, विशेष अर्थाः सन्ति एतेषां सनादिप्रत्ययानां. परन्तु अत्र यथा णिच् चुरादिगणे वयम् अग्रे पठेम, तत्रापि णिच् प्रत्यय विधीयते. सामान्यतः किं भवति, णिच् प्रत्ययस्य योजनेन तत्र प्रेरणार्थके एव अर्थः, प्रेरणार्थके पठति पाठयति इति प्रेरणार्थकः. परन्तु चुरादिगणे ये धातवः सन्ति तेषु तेषां रूपसाधनार्थं चुरादिभ्यः णिच् इत्यनेन विशेषसूत्रेण णिच् प्रत्यय विधीयते, तस्य स्वार्थे एव तस्य अर्थपरिवर्तनं न भवति. यथा चुर् अस्ति चोरयति इति भवति, इदानीं तत्र चोरयति स्वस्य कृते एव, तत्र विशेष अर्थपरिवर्तनं प्रेरणार्थके नास्ति चोरयति इति, परन्तु प्रेरणार्थके अपि भवितुमर्हति, तत्र भिन्नसूत्रेण अत्र चोरयति इति रूपमेव भवति, तत्र अग्रे पठेम तत् कथं भवति इति. परन्तु चुरादिगणे यद् णिच् प्रत्यय अस्ति स्वार्थे इत्युक्ते अर्थपरिवर्तनं भवति, चुर् इति यद् धातोः यः अर्थः अस्ति, इदानीं णिच् प्रत्ययोजनेन यदि सनादिप्रत्यये सामान्यतः सनादिप्रत्ययोजनेन तत्र धातोः अर्थपरिवर्तनं भवति, परन्तु अत्र न भवति, केन विशिष्टसूत्रेण तत्र इत्युक्ते स्वार्थे एव, स्वार्थे इत्युक्ते स्वार्थे, अत्र विशिष्टार्थः नास्ति सनादिप्रत्ययस्य, यः अर्थः तद् न भवति, यत् मूले यद् अर्थः अस्ति, मूल धातुः अर्थः अस्ति तदेव भवति, अत एव तत्र स्वीकरणीयम् अस्माभिः. तत्र गोपयति, तत्र गूप अस्ति, अत्र गोपयति गोपायति, तत्र धूप धूप तत्र तत्रापि धूप गोपायति धूपायति पणायति पणायति, वयं दृष्टवन्तः भुवादिगणे भुवादिगणे यदा पठितवन्तः तत्रापि आय अस्य सूत्रस्य अध्ययनं कृतवन्तः. गुपु धूप विच्छि पणिपणिभ्यः आयः इत्यनेन केवलं रूपसाधनार्थं तत्र तादृशरूपमस्ति. एतेषां यदि गुपु गुपु इत्यस्य गोपयति गोपायति इत्येव रूपमस्ति, अतः आय इति आगन्तव्यम्. इदानीं ष इति विकर्णपत्येन न भवति, गुपु गुपु इति अस्ति, इदानीं तत्र ष इति विकर्णपत्येन गोपायति इति रूपं न भवति, अतः के तेन यत् अस्य सूत्रस्य पाणेन एतत् सूत्रं विरचितवान्. अस्तु, अतः तत्र एकमेव अत्र विच् इति धातुः अस्ति, विच्छायति रूपम्.
धन्यवादः,
धन्यवादः. अग्रे इदानीं तत्र इदानीं लता भगिनी अग्रे.
आं महोदय, विकर्णप्रत्ययविकल्पः एकः धातुः वा भ्राश भ्राश भ्रमु क्रमु क्लमु त्रसि त्रुटि लशः 318 भ्राश भ्राश भ्रमु चलने क्रम क्लम त्रस त्रुट लश् एतेभ्यः षण् विकल्पेन भवति कर्तृके प्रत्यये परे. भगिनि ब्रशश्च भ्लाशश्च भ्रमुश्च क्रमुश्च क्लमुश्च त्रसिश्च त्रुटिश्च लश् च तेषां समाहारद्वन्द्वः भ्राश भ्राश भ्रमु प्रमु क्लमु त्रसि त्रुटि लश् तस्मात् भ्राश भ्राश भ्रमु प्रमु क्लमु त्रसि त्रुटि लशः वा अव्ययपदं भ्राश भ्राश भ्रमु क्रमु क्लमु त्रसि त्रुटि लशः पञ्चम्यसं द्विपदमिदं सूत्रं दिवादिभ्यः श्यन् इत्यस्मात् श्यन् इत्यस्य अनुवृत्तिः कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः धातोरेकाचो हलादेः क्रिया समभिहारे यङ् इत्यस्मात् धातुभ्यः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं भ्राश भ्राश भ्रमु प्रमु क्लमु त्रसि त्रुटि लशः धातुभ्यः षण् प्रत्ययः परश्च वा कर्तरि सार्वधातुके एतेषां धातूना श्यन् इति विकल्पेन भवति
अतः तत्र मूले किम् तत्र अत्र एक एव धातुः अस्ति तत् त्रुटि इति धातु तुगादिगणे अन्ये धातवः तत्र अवशिष्टदातवः ध्वादिगणे एव सन्ति अतः तेषाम् अन्यरूपाणि सन्ति इति कृत्वा तत्र षण् इति विकरणप्रत्यय अपि भवति इति अस्ति वयं दृष्टवन्तः तत्र भ्वादिगणे अतः तुदादौ त्रुट् इति किं भवति पठत अग्रे
तुदादौ त्रुट् श प्रत्यये त्रुटति विकल्पेन श्यन् प्रत्यये त्रुट्यति अस्मिन् सूत्रे त्रुट् धातुः तुदादिगणे अवशिष्टाः सर्वे धातवः भ्वादिगणे सन्ति न कोऽपि धातुः दिवादिगणे इत्थं च विशिष्टसूत्रेण श्यन् इति विकरणप्रत्ययः विहितः शन् अभावे सप् इति सामान्यं भ्वादौ श इति सामान्यं तुदादौ इति तुदादिगणे समग्रं तिङ् सम्बद्धं सार्वधातुकप्रकरणचिन्तनं समाप्तम्
अत्र तत्र वयं तत्र एकं शे तृम्फादीनाम् उपसङ्ख्यानं कर्तव्यम् इति तत्र न पठितवन्तः तृम्फादीनां तृम्फ इति एकवारं पश्यामि तत् शे मुचादीनामिति दृष्टवन्तः इदानीं तृम्फ इति तुदादिगणे एकम् अन्तर्गणः अस्ति एकवारं दर्शयामि तत्र कुत्र अस्ति इति एकवारं तृम्फ एकनिमिष अन्तर्गणः पश्यामि तृम्फति एकनिमिष तुदादिगणः अन्तर्गणः एकवारं तृम्फ कुत्र अस्ति एकनिमिषीयः कणादि किरादि कुटादि कटादि जपादि अस्तु नास्ति अत्र एकवारं तत्र तृम्फादि इति कश्चन अन्तर्गणः अस्ति तत्र तृम्फ् तृम्फ् इति अस्ति तृम्फ् अपि च अन्यदस्ति दृम्फ् रम्फ् इति अस्ति गुम्फ् इति अस्ति उम्ब् शुम्ब् तृम्फ् इति तत्र एतेषु किमस्ति उपधायां नकारः अस्ति नकारस्य लोपः भवति तुदादिगणे दातवः सन्ति एते दातवः नकारस्य लोपः भवति अनिदितां उपधायां निति च इति सूत्रेण नकारस्य लोपः भवति परन्तु पुनः नकारस्य आगमः भवति वयं तत्र किं भवति शे तृम्फादीनाम् उपसङ्ख्यानम् इति सूत्रेण तत्र वयं केवलं तत्र मोदेन दत्तमस्ति केवलं तत्र मूले मुचादिगणे न शेमुचादीनाम् इत्यत्र नकारः मूले नास्ति नुमागमः भवति परन्तु तुम्फादीनाम् इति तुम्फादि कश्चन अन्तर्गणः अस्ति सुदादिगणे तत्र उपधायां नकारः अस्ति इदानीं नकारस्य लोपः भवति अनिदिताम् उपधायाम् इति इत्यनेन लोपः भवति परन्तु इति सूत्रेण लोपः भवति इदानीम् इति किं भवति पुनः नुमागमः विधीयते किमर्थमिति रूपसाधनार्थम् अतः शेतुम्बादीनाम् उपसङ्ख्यानम् इति इत्यनेन तत्र पुनः नकारस्य आगमः भवति इति अस्ति तद् न दत्तमस्ति न जानामि किमर्थम् अस्तु तावदेव अतः वयं तत्र तुदादिगणस्य पठनं समाप्तम् अभवत् अस्तु अग्रे इदानीम् अग्रिमः अस्ति अत्र चुरादिगणः इत चत्वारः गणः अदन्तदातवधातूनां कुत्र भवति वयं जानीमः पूर्वमेव वयं दृष्टवन्तः द्वादिगण दिवादिगण तुदादिगण अपि च चुरादिगण तत्रापि तेषु तत्र धातुः अदन्तमङ्गम् अतः अदन्तमङ्गस्य इदानीम् अग्रिमः पाठः अस्ति चुरादिगणः अग्रिमः दशमः कृपया दशमः तत्र अध्यायम् उद्घाटयन्तु चुरादिगणः इति वयं जानीमः. चुरादिगणे किं भवति? चुरादिभ्य निच् इति कश्चन विकरणप्रत्ययः भवति. निच् स्वक्षमतं निच् इति विधीयते, निच् प्रत्ययः विधीयते, सनादिप्रत्ययः निच्. निच् इति कीदृशप्रत्ययः अस्ति कोऽपि जानाति वा? वक्तुमिच्छति निच् इति कीदृशप्रत्ययः अस्ति? आर्धात्कप्रत्ययः अस्ति, धातोः परः भवति आर्धात्कप्रत्ययः अस्ति. किमर्थं? तिंशित् सार्धातुकं शेषतः अर्धातुकमस्ति, आर्धात्कप्रत्ययः अस्ति. इदानीं नकारः नित् अस्ति, अतः नित् इति कृत्वा तत्र वयं दृष्टवन्तः कः किं सूत्रं णिच् अस्ति चेत् नित् अस्ति भवति अचोर्णिति सूत्रे किं भवति? अचोर्णिति सूत्रेण वृद्धिः भवति, अत्र अङ्गस्य वृद्धिः भवति, इगन्ताङ्गस्य वृद्धिः भवति, क्षमताम् अजन्ताङ्गस्य वृद्धिः भवति चेत् अचोर्णिति सूत्रेण वृद्धिः भवति इति अस्ति. उपादायां किं भवति? उपादायम् अस्ति चेत् वृद्धिः नास्ति चेत् हलन् धातुः अस्ति चेत् उपादायां किम् अकारः अस्ति चेत् अत उपादायमित्येन भवति इति अस्ति. इदानीम् अकारः नास्ति चेत् किं भवति उपादायाम्? इदानीम् अन्यस्वरः अस्ति चेत् इकारः इगन्त इकारः च उपादायम् इकारः उकारस्ति किं भवति? गुणः सामान्यसूत्रमस्ति. केन सूत्रेण भवति? उगन्तलघुपदे सूत्रेण तत्र गुणः भवति. अतः तत्र वयं जानीमः, वयं ज्ञातवन्तः पूर्वमेव पठितवन्तः निच् इति कृत्वा नित् इति कृत्वा अचोर्णिति सूत्रेण इगन्तकस्य तत्र अच् अजन्तकस्य वृद्धिः भवति. इदानीम् अकार उपादायम् अकारस्य वृद्धिः वा अचोर्णिति सूत्रेण? अन्यत्र किं भवति? अन्यत्र उपादायं तत्र अन्य वर्णः अस्ति चेत् तत्र गुणः भवति. पुगन्तलघुपदस्य स्तरेण इक् इगन्त उपादायम् इक् वर्णस्य लघु इक् वर्णस्य किं भवति गुणः भवति इति वयं दृष्टवन्तः. इदानीम् एतदेव अस्ति तत्र प्रमुखकार्यमस्ति. परन्तु कुत्रचित् तलेषु तत्र पुगागमः भवति. यत्र पुगागमः भवति चेत् किं भवति? तत्र पुकागमः भवति चेत् तत्र पुगन्तलघुपदस्य चैत्यसूत्रेण तत्र किं भवति? उपादायां दीर्घ अस्ति चेदपि गुणः भवितुमर्हति. पुगन्तलघुपदस्य इति सामान्यतया वयं दृष्टवन्तः लघु उपादायं लघु इक् वर्णस्य अस्ति चेत् तत्र गुणः भवति इति. इदानीं यत्र पुगागमः भवति, पकारः आगमः भवति, तत्र अस्मिन् वयं पठेम इदानीं. तत्र इदानीं उपादायां दीर्घ इक् वर्ण दीर्घ इक् वर्णः अस्ति चेदपि तत्र गुणः भवति. पुगन्तस्य अपि च लघु इगुपदस्य, पुगन्तस्य इत्युक्ते अत्र लघु इति न उक्तम्, अतः दीर्घ भवतु वा लघु ह्रस्व भवतु गुणः भवति यदि पुगागमः अस्ति चेत्. पुगागमः नास्ति चेत् केवलं लघु इक् वर्णस्य. एतदेव अस्ति, वयं पठेम तत्र अत्र दत्तमस्ति सर्वं. अस्तु, कः पठति इदानीं तत्र? विजया भगिनी पठ आरम्भं करोति वा? पठितुमिच्छति वा?
भवान्
तत्र न चुरादिगणः दशमः पाठः अस्ति, दशमः अग्रिमः
आगच्छति खलु अत्र न आगच्छति
आगच्छति खलु तत्र वर्ल्ड् संस्कृत् डाट् नेट् इत्यस्मिन् अस्ति खलु. अस्तु, अहं प्रेषयामि. अस्तु, अहं लिङ्क् प्रेषयामि एकवारं तत्र. एकनिमिषः, लिङ्क् प्रेषयामि एकनिमिषः. हा, प्रेषितवान्, तत्र क्लिक् करोतु. चाट् मध्ये
ईमेल् चाट् मध्ये वा?
चाट् मध्ये अस्ति खलु अत्र ईमेल् नास्ति. प्राप्तं वा? अस्तु, भवती अनन्तरं पठतु, कोऽपि अन्यः पठतु इदानीं तत्र. इदानीं निरञ्जना भगिनी पठतु. भवती अनन्तरं पठतु भगिनि, विजय भगिनि अनन्तरम्. अस्तु
पठामि महोदय. मम दिने श्रूयते?
श्रूयते, श्रूयते, सम्यक् श्रूयते.
चुरादिगणः, चुरादिगणः एतावता सार्वधातुकलकाराणां लट् लोट् लङ् विधिलिङ् इत्येषां तिगन्तरूपाणि साधितानि अस्माभिः भादिगणे, द्विवादिगणे, तुदादिगणे च. अनेन क्रमेण पाठः प्रवर्तते. यतः एषु गणेषु अङ्कम् अदन्तं भवति, अतः प्रक्रियायां साम्यं वर्तते. आहत्य एतादृशाः चत्वारः गणाः सन्ति. चतुर्थः गणः यस्मिन् अङ्गम् अदन्तं भवति चुरादिगणः. केचन चिन्तयति यत् चुरादिगणः कष्टकरः, किन्तु एवं किमपि नास्ति. वस्तुतः अत्र आधिक्येन सामान्यमेव नियमितरूपेण सूत्राणि उपयुज्य तर्कमनुसृत्य तिगन्तरूपाणि साध्यन्ते. प्रक्रिया का इति एकवारं ज्ञायेत् तदा सर्वं सुलभं. केचन विशेषधातवः अपि सन्ति, तेषां प्रसङ्गे अग्रिमे करपत्रे चर्चयाम. अत्र द्वादि, द्विवादि, तुदादि तथा चुरादि एषु गणेषु अङ्गम् अदन्तम् अस्ति, अतः प्रक्रिया समानमेव अस्ति. अतः चुरादिगण, चुरादि अग्रे पठामि महोदय. चुरादिगणे तिगन्तरूपस्य साधनार्थं सोपानत्रयम्. प्रथमं धातुः योगः णिच् प्रत्ययः, णिजन्तधातुः. णिजन्तधातुः योगः शप् विकरणप्रत्ययः, अङ्गं तिङ् प्रत्ययं निमित्तम् अथवा अङ्गं प्राप्यते. अनन्तरम् अङ्गं योगः तिङ् प्रत्ययः तिगन्तरूपं साध्यते. प्रथमतः तत्र सोपानत्रयमस्ति. प्रथमसोपाने णिच् प्रत्ययः धातुतः भवति. तद् निजन्तधातुः, तद् आतिदेशीयधातुः प्राप्यते भवति. तदनन्तरं शपविक्रणप्रत्ययः, कर्तरिशप् इत्यनेन शपविक्रणप्रत्ययः आगच्छति. तदनन्तरम् अङ्गं प्राप्यते. अनन्तरं तिगन्तरूपं कर्तुं शक्नुमः.
कर्तरिशप् इति अत्र पश्यतु, तत्र कर्तरिशप् इति कुत्रापि कर्तरिशप् सामान्यसूत्रमस्ति, तद् प्रभाद्य अन्यसूत्राणि. इदानीं तत्र दिवादिप्यशन्, तुदादिप्यश, अन्य 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 गण गणनिमित्तीकृत्य तत्र भिन्नभिन्न विकरणप्रत्ययः तत्र सन्ति. इदानीं तत्र किमपि न उक्तं चुरादिगणे, न चुरादिगणे, चुरादिगणस्य विषये किमपि न उक्तं, भवादिगणे यस्य विषये किमपि न उक्तं, तर्हि सामान्यसूत्रमस्ति. अतः सनादि दातव सत्यत तत्रापि सामान्यसूत्र, सामान्य सनादि दातव सत्यपि शप्यकरणपत्ये विधीयते. अतः एतत्र इदानीं निजन्तदातु सनादन्तदातवः इत्यनेन सनादिपत्ये अस्ति, सनादिदातुः अस्ति. अतः तत्र सामान्यसूत्रमस्ति कर्तरि शप् इत्यनेन तत्र कर्तृत्वे सर्वार्थके तत्र भवति इति अस्ति. अस्तु,
अग्रे पठामि महोदय. यथा उक्तं चुरादिगणे अङ्गम् अदन्तम्, अतः अङ्गे सिद्धे अस्माकं नूतनकार्यं समाप्तं. तिङ्गप्रत्ययस्य योजनविधिः यथा भादिगणे प्रदर्शितः, तथैव भवति द्विवादिगणे, तुदादिगणे, चुरादिगणे च. न कोऽपि भेदः. दृष्टान्ते चुर् धातोः अङ्गं चोरय, लटि चोरय, योगति चोरयति. द्विवचने चोरयोगतः चोरयतः, बहुवचने चोरय योग अन्ति चोरयन्ति, अतो गुणे इत्यनेन भवति. यथा भ्वादिगणे तथैव चुरादिगणेपि. अतः अस्मिन् पाठे अस्माकम् अवधानं प्रथमे सोपानद्वये एव. अत्र भुवादिगः, भुवादिगणे तत्र प्रक्रिया प्रथम चुरादिगणे अङ्गम् अदन्तमस्ति, अतः द्विवादिगणे, तुदादिगणे, चुरादिगणे कोऽपि भेदः न दृश्यते. अत्र प्रक्रिया
यत्किमपि सति कार्यमस्ति तदेव करणीयमस्ति. यन्निच्छति कृत्वा यत्किमपि भवतु तत्र करणीयम्. अनन्तरं शप्यकरणप्रत्ययः तत्र भुवादिगण इव भवति, भुवादिगण इव एव अस्ति. इदानीं धन्यवादः भगिनि. इदानीं निजन्त निच् प्रत्ययः केन सूत्रेण भवति इति पश्यामि. इदानीं चुरादिगणे चुरादि दातवः सन्ति, तेषु निच् प्रत्ययः कथं भवति इति अग्रे पश्यामः. धन्यवादः. लता भगिनी अग्रे पठति वा?
महोदय. सत्यापपाश रूप वीणा तूल श्लोक सेना लोम त्वच वर्म वर्ण चूर्ण चुरादिभ्यः निच 3125 एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः सर्वेभ्यः चुरादिगणीयधातुभ्यः च निच् प्रत्ययः विधीयते. एभ्यः प्रातिपदिकेभ्यः डिच् प्रत्ययस्य संयोजनेन रामधातुः भवति. चुर् आदि येषां ते चुरादयः. सति सत्यापश्च पाशश्च रूपञ्च वीणा च तूलञ्च श्लोकश्च सेना च लोम च त्वचश्च वर्म च वर्णञ्च चूर्णञ्च चुरादयश्च तेषाम् इतरेतरद्वन्द्वः. सत्यापपाशरूपवीणा तूलश्लोकसेना लोम त्वच वर्म वर्णचूर्ण चुरादयः तेभ्यः बहुव्रीहिगर्भो द्वन्द्वः. सत्यापपाशरूपवीणा तूलश्लोकसेना लोम त्वच वर्म वर्णचूर्णचुरादिभ्यः पञ्चम्यन्तं निच प्रथमान्तं द्विपदमिदं सूत्रं. प्रत्ययः परश्च इत्यनयोः अधिकारः धातोरेकाचो हलादेः क्रियासमभिप्रकारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः वचनपरिणामेन पञ्चमीविभक्तौ धातुभ्यः. अनुवृत्तिसूत्रं सत्यापपाशरूपवीणा तूलश्लोकसेना लोम ध्वज वर्म वर्णचूर्ण चुरादिभ्यः धातुभ्यः णिच् प्रत्ययः परश्च. एतेषां प्रातिपदिकानाम् अपि च चुरादिगणीय धातूनां णिच् प्रत्याहारः णिच् प्रत्ययः भवति.
अतः चुरादिगणे यदा निच् प्रत्यय विधीयते सनादन्त्या धातु इति न धातुसंज्ञा भवति. अतः एतदेव सूत्रमस्ति चुरादिभ्यः निच् इति. तत्र अन्य द्वादश सन्ति प्रातिपदिकेभ्यः अपि निच् प्रत्ययः भवति. सत्यापयति भाषयति रूपयति तत्र तादृश रूपसाधनार्थं येन तत्र निष्प्रत्ययेन योजितमस्ति. चुरादिभ्यो णिच् इति सूत्रेण इदानीं चुरादिभ्यो णिच् सामान्य अस्माकं मनसि भवति. चुरादिभ्यो णिच् इत्यनेन तत्र निष्प्रत्ययः विधीयते. इदानीम् अग्रे केन सूत्रेण धातुसंज्ञा भवति? इदानीं निष्प्रत्ययः सामान्य किं भवति? प्रत्ययोजनेन किं भवति? धातुप्रत्ययोजनेन अङ्गं भवति खलु, अङ्गं भवति. परन्तु अत्र धातु एव केन सूत्रेण भवति? अत्र धातुसंज्ञा एव भवति, अङ्गसंज्ञा न भवति. अग्रे धातु न भवति, धातु
एव. 3132 द्वादशप्रत्ययाः सन्ति, येषां संयोजनेन नूतनाः धातवः सृष्टाः भवन्ति. सन् क्यच् काम्यच् क्यश् क्यङ् क्विप् निङ् इयङ् लिच् यप् आय यम् इति येषां प्रकृतिः अङ्गं. क्वचित् धातुः, क्वचित् प्रातिपदिकः. सन् आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः. सनाद्यन्तः प्रथमान्तं, धातवः प्रथमान्तं द्विपदविधं सूत्रम्. सूत्रं स्वयं सम्पूर्णं. सनाद्यन्ताः धातवः, सनादि प्रत्येपरे धातु एव सृष्टः.
धातु यदा यदि प्रत्यय प्रातिपदिकं भवतु वा धातुः भवतु, यदि सनादिप्रत्ययं योजनेन किं भवति? पुनः धातुसंज्ञा एव धातु एव भवति. एतत् आतिदेशिकधातुः भवति. सामान्यतः किं भवति? यदि धातुतः प्रत्ययं योजयामः चेत् अङ्गं भवति खलु. अतः अङ्गं भवति चेत् शब्दविकरणमध्ये न भवति, धातुतः एव खलु कर्त. अतः तत्र सनातनदातुवित्तेन धातुसंज्ञा भवति. अनन्तरं कर्तरिषप् इत्यनेन तत्र वयं तत् धातुतः वयं योजयितुं शक्यते अस्माभिः. अतः सनाद्यन्तः दातः इत्यनेन तत्र चुरादिगणे यदा निष्पत्ति विधीयते आदिदेशिकसंज्ञा भवति, आदिदेशिकदातुः भवति. अग्रे
एषु द्वादशसु प्रत्ययेषु अन्यतमः निच् एव. अतः निच् प्रत्ययस्य संयोजनेन चोरि, पाठि, लेखि इत्यादयः यावन्तः धातवः सृष्टाः ते सर्वे सनात्यन्ताः धातवः इति सूत्रेण धातुसंज्ञकाः. एते च आतिदेशिक धातवः, औपदेशिकधातवः, उपद्विसहस्रं ते भ्वादयो धातवः इति सूत्रेण धातुसंज्ञकाः भवन्ति. एते आतिदेशिकधातवः. औपदेशिकधातवः पाणिनीयधातुपाठे 1943 धातवः उपदिष्टाः सन्ति. उपदिष्टाः धातवः, अतः एते औपदेशिकधातवः. येषां धातूनां धातुसंज्ञा भवति भ्वादयोः धातवः इति सूत्रम्. आतिदेशिकधातवः उपरितनान् पाणिनीयधातुपाठे पठितानि धातूनां वर्धयित्वा इतोपि असंख्याः धातवः सन्ति. एते धातवः धातुपाठे न सन्ति, अपि तु अस्माभिः निर्मिताः. यथा गन्तुम् इच्छति जिगमिषति इति सनन्तरूपं प्रायः श्रुतम्। अत्र जिगमिष इति धातुः अस्ति, स च जिगमिषधातुः पाणिनीयधातुपाठे नास्ति। गमधातुः धातुपाठे अस्ति, अयं गमधातुः द्वादौ द्वादयोः धातवः इति सूत्रेण धातुसंज्ञः धातुसंज्ञकः। तदा सन् प्रत्ययं योजयामः चेत् नूतनधातुः जिगमिष सृष्टः अस्माभिः। अयं धातुः सनात्यन्तः धातवः इति सूत्रेण धातुसृष्टः। एवमेव द्वादशप्रत्ययाः सन्ति, येषां योजनेन नूतनाः धातवः सृष्टाः भवन्ति।
अस्तु, धन्यवादः भगिनि। अत्र आदिदेशिकदातवः औपदेशिकः उपदेश धातुपाठे ये मूले दत्तमस्ति अनेन उपद्विसहस्र दातवः सन्ति, ते औपदेशिकदातवः। यदा सन्प्रत्ययं योजयामः चेत् तत्र आदिदेशिकदाते अपि दातवः भवति, आदिदेशिकदातवः इति अस्ति। अस्तु, धन्यवादः
महोदय। एकः संशयः महोदय, केवलं प्रातिपदिकानाम् एव निश्च भवति वा?
न न, तत्र पश्यतु, सनादिपत्य सन्ति, कृष्णायते, राजायते, गोपाय, मात्रीयते, तत्र तत्र तादृशः सन्ति। तत्र केचन सनादिप्रत्य सारि क्षम्यतां सनादिप्रत्ययाः सन्ति, पश्यतु अत्र द्वादश सन् प्रत्ययाः सन्ति, सनादिप्रत्ययाः सन्ति खलु, सन् आदिः येषां ते सनादयः सन्। अत्र धातुकः एव भवति, क्यच् कान्यच् क्यश् क्यङ् क्विप् एते तत्र किं भवति प्रातिपदिकेपि भवति, कुते निच् प्रातिपदिकेपि भवति, अपि च धातुतः अपि भवति। केचन धातु सन् इति धातुतः एव भवति, यक् इति तद्धातुतः, आय इति धातुतः भवति, अपि च प्रातिपदिकेभ्यः भवति, यङ् इति तस्य धातुतः भवति इति अहं चिन्तयामि। तत्र तादृशः अतः केचन धातुतः एव विधीयते, केचन सुबन्तेभ्यः अपि धातुतः विधीयन्ते, केचन प्रातिपदिकेभ्यः अपि च केचन प्रातिपदिकेभ्यः एव विधीयन्ते, प्रातिपदिकेभ्यः केचन धातुतः, केचन सुबन्तेभ्यः वा प्रातिपदिके। सुबन्त इत्युक्ते सुबन्तपदमस्ति, अनन्तरं तस्य लोप सुप्रत्ययस्य लोप भवति, अन्तिमे अन्ततः गत्वा प्रातिपदिका एव अवशिष्टं भवति, प्रातिपदिकेभ्यः विधीयन्ते। अतः विशिष्ट अर्थाः सन्ति सनादिप्रत्ययस्य, सनादि यदा सनादि ते तस्य पाठ भवति, तत्र वयम् इतोपि विस्तरेण पठेम, तत्र पठिष्यामः।
अस्तु,
सनादि इति एते एव सामान्यसन्निधिपत्य वयं जानीमः, तत्र राजायते क्यश् क्यङ् इति, राजायते, पुत्रीयते, मात्रीयते, पुत्रैवाचरति इति मातृवाचरति इति, राजायते इति तादृश भिन्नाः सन्ति। क्विप् इति तत्र तदपि क्विप् प्रत्यय अस्ति, तत्र सर्वापहारी प्रत्यय अस्ति, तत्र किमपि न अवशिष्यते। किप् इति प्रत्ययस्य ककारस्य वकारस्य पकारस्य सर्वं लोपः भवति, परन्तु किं भवति, तत् धातुसंज्ञा भवति इति, यदि प्रातिपदिकात् प्रातिपदिकस्य अथवा सुबन्तस्य किप् प्रत्ययं योजयामः चेत् केवलं पुनः धातुसंज्ञा भवति, किप् इत्यस्य लोपः भवति। इदानीं तस्य प्रातिपदिकस्य वा सुबन्तस्य धातुसंज्ञा भवति, अतः अनन्तरं तस्य विशेष अर्थः अस्ति, एतेषाम् अर्थः अस्ति, तत् पठेम अनन्तरं। यथा सन् इति वयं जानीमः, निच् इति जानीमः, त्रयणार्थके भवति सामान्यतः इति अस्ति, यक् इति अस्ति, यक् अपि एकमस्ति, कर्मणि तद् भिन्नमस्ति, एतद् सनादि यक् भिन्नमस्ति, आय इति भिन्नमस्ति, यक् इति यङ् यगन्तदातवः खलु, वारं वारं तत्र भो भूयते इति खलु, तद् वयं दृष्टवन्तः यङ्गन्तदातवः, तद् यङ् लुक् तत्र भिन्नभिन्नमस्ति, भिन्नभिन्ना तत्र प्रक्रिया भिन्ना अस्ति, वयं पठेम तत्र। यदा धातुः भवति चेत् किं भवति, आर्धातुकः भवति, अन्यथा न भवति, प्रातिपदिके भवति चेत् साधारणधातुः इति गुणः इति न भवति, तस्य सूत्रस्य न भवति खलु, किमर्थमिति चेत् प्रातिपदिकेपि यदा विधीयते तत्र साधारणधातुकयोः इति प्रत्ययस्य सूत्रस्य आवश्यक प्राप्तिः न भवति, किमर्थं धातुतः विधीयमान एव खलु साधारणकः धातुकः भवति इति, प्रातिपदिकात् कश्चन नीचिपथे विभजामः चेत् तदा सार्धातकान्तरे इति तत्र शुद्धस्य प्रसक्तिः न भवति. अस्तु
अस्तु महोदय, धन्यवादः.
अस्तु अग्रे पश्यामः इदानीं तत्र पठेम तत्र विस्तरेण. अस्तु धन्यवादः. अग्रे इदानीं ततः इदानीं विजया भगिनी पठितुं शक्नोति वा? इदानीं प्राप्तं वा करपत्रम्?
आं जि, करपत्रे करपत्रमपि अस्ति. अक्षुरादिगणे निच् प्रत्ययः स्वार्थे अस्ति इत्युक्ते
एव भगिनी अत्र येषु द्वादश प्रत्ययेषु अन्यतमः अत्र ततः पठतु येषु द्वादश तत्र अधः
इति इदानीमेव सा पठितवती खलु.
हा क्षम्यताम्, औपदेशिकदातव आदेशिकदातवापि पठितवती. अस्तु अस्तु अक्षुरादिगणे क्षम्यताम्. अस्तु
चुरादिगणे निच् प्रत्ययः स्वार्थे अस्ति इत्युक्ते धातोः एव अर्थपोषणं करोति. अत्र निच् प्रत्ययस्य पृथक्तया कोऽपि अर्थः नास्ति. प्रेरणार्थे निच् इति भिन्नविषयः. चुरादिगणे तादृश अर्थः नास्ति एव. चुरादिगणे धातुतः यं कमपि प्रत्ययं संयोजयितुम् इच्छति, विकरणं भवतु वा आर्धधातुक कृत् भवतु, तस्मात् पूर्वं निच् विधीयते एव. निच् प्रत्यये छुटु इत्यनेन नकारस्य इत्संज्ञा भवति. अलन्त्यं तस्य अलन्त्यम् इत्यनेन चकारस्य इत्संज्ञा भवति. तस्य लोपः इत्यनेन तयोः लोपश्च इ इति अवशिष्यते. निच् प्रत्ययः धातुभ्यः विहितः, अपि च तिङ् षित् भिन्नः. अतः आर्धधातुकं शेषः इत्यनेन अयं निच् प्रत्ययः आर्धधातुकः न तु सार्वधातुकः. इत्थं च निच् प्रत्ययः कीदृशः इति चेत् नित् च आर्धधातुकं च यत् किमपि कार्यं क्रियते निच् प्रत्ययं निमित्तीकृत्य अस्य एव लक्षणस्य बलात् क्रियते निच् आर्धधातुकम् इति. तत्र एतत् सर्वं समीचीनतया अस्ति एव. किमपि अत्र अस्तु चुरादिगण धातु स्वार्थे अस्ति एव. तत्र एतत् पृथक् प्रेरणार्थे निच् इति भिन्नविषयः. चुरादिगणे तादृशः अर्थः नास्ति एव. अनन्तरं तत्र कमपि धातुतः प्रत्ययं योजनेन एव तत्र विकरणप्रत्ययम् इच्छति चेत् एव तत्र योजनं कुर्मः. एतत् आर्धधातुक कृत् भवतु. अनन्तरं निच् प्रत्यये चुटु इति सूत्रेण तत्र नकारस्य इतिसंज्ञा भवति. अनन्तरं हलन्त्यं तस्य लोपः इति सूत्रेण एतत् इतिसंज्ञा भवति. इति एव अवशिष्यते अत्र. अतः तत्र धातुतः ई योजनेन कार्यम् अत्र भवति. एतत् आर्धधातुकं शेषः इत्यनेन निच् प्रत्यय आर्धधातुकः न तु सार्धधातुकः.
तावदेव
भवति अत्र.
अस्तु अत्र आर्धातुकं शेष इति किञ्चित् सार्धातुकम् अस्ति. आर्धातुकं शेष निच् इति प्रत्ययः तत् टिङ् अपि नास्ति, षित् अपि नास्ति, अतः आर्धात्कपत्य अस्ति, धातुतः विधीयमाना अस्ति, अतः भवति. इदानीम् अपरमस्ति ये धातवः सन्ति चुरादिगणे तत्र नित्यत्वेन भवति, तत्र णिच् प्रत्ययः भवति. यत्किमपि अन्यप्रत्ययं योजये यदा योजयामः तत्र णिच् प्रत्ययः तत्र सर्वदा आगच्छति. यथा पश्यतु चुरु इति धातुः अस्ति, इदानीं का प्रत्ययं योजयामः किं भवति? तत्रापि यदि चुर् इति चुरादिगणे धातुः अस्ति, चुरुयोगक्ता प्रत्ययः किं भवति? तत्र निच् प्रत्ययं योजनीयम्, अस्माभिः योजनीयमेव. यदि आर्धात्कप्रत्ययः अस्ति, ता इति प्रत्यय आर्धात्कप्रत्ययः अस्ति, अतः चुरुयोग ता प्रत्यय मध्ये निच् आगच्छति. प्रथमं निच् आगच्छति चुरुयोग निच् चोरि इति भवति, चोरि योग चोरितः इति तत्र इति तत्र तादृश अत्र. अतः निच् प्रत्ययः भवत्येव चुरादिगणे स्वार्थे एव भवति. तत्र स्वार्थे यः अर्थः मूले अस्ति तदेव. अतः यदा निच् प्रत्यय योजयामः सामान्यतः अन्येषां अन्ये अपरस्य गणस्य धातुतः यदा णिच् प्रत्ययो योजयामः तत्र अर्थपरिवर्तनं न भवति खलु। पट् योग अस्ति, पट् योग णिच् प्रत्ययो योजयामः चेत् पाट् इति भवति, तस्य अर्थः कः? प्रेरणा, प्रेरयति, पठितुं प्रेरयति, पाठयति इति भवति अत्र, अन्य पाठयति इति भवति, अतः अर्थः भिन्नः। पठति इति भिन्नः अर्थः अस्ति, पाठयति इति अर्थः भिन्नः। परन्तु चुरु इति अस्ति, इदानीं तत् क्षाल् इति धातुः अस्ति, पश्यतु क्षाल् इति धातुः अस्ति, वस्त्रं इदानीं क्षाल् इति किं भवति, क्षालयति इति रूपं भवति, क्षालियोग अयोग शप् योगति क्षालयति इति रूपम्। इदानीं रमे तत्र रमेशः वस्त्रं क्षालयति इति अस्ति अथवा किमपि भवतु, वस्त्रं क्षालयति रमेशः, इदानीं तत्र स्वयमेव करोति, अतः तत्र स्वार्थे एव क्षालनम्। इदानीं तत्र णिच् प्रतियोजयामः चेत् प्रेरणार्थके भवति चेत् रमेशः सेवकेन वस्त्रं प्रक्षालयति, अत्र प्रेरणार्थे भवति, अतः तत्र तत् भिन्नमस्ति। अत्र यत् यानि ये दातवः सन्ति चुरादिगणे, तत्र नियमेन णिच् प्रत्ययः भवति स्वार्थे एव, अतः यत्किमपि अन्यप्रत्ययं योजयामः चेत् आतप्रत्ययः भवतु अथवा असाधुप्रत्ययः भवतु, तत् पूर्वं णिच् प्रत्यय योजनीयमेव, निश्चयेन नित्य नियमेन तत्र अस्माभिः योजनीयमस्ति। अतः अपि च एकं लक्षणमस्ति वा दत्तमस्ति, णित् अस्ति, णकारः इत् अस्ति, कथं णित् अस्ति, णिच् प्रत्यय णित् अस्ति, अतः तत्र णित् निमित्तककार्याणि यानि सन्ति तानि तत्र भवन्ति। अग्रे पश्यामः इदानीं कानि णिच् णित् निमित्तीकृत्य कानि कार्याणि भवन्ति इति पठेम। धन्यवादः। अत्र उमा भगिनी पठितुमिच्छति वा अचोर्णिति णिच् प्रत्ययस्य कारणतः?
करपत्रसङ्ख्या
दशमः तत्र तत्र चाट् मध्ये दशमः तत्र णिच् प्रत्ययस्य अधः पश्यतु, अधः अस्ति णिच् प्रत्ययस्य कारणतः धातुरूपी अङ्गे प्रमुखकार्यत्रयं सम्भवति इति अस्ति। अस्तु,
तुदादिगणे इतोपि विशेषदातवः
न तुदादि नास्ति, क्षम्यतां भगिनि, चुरादिगणे, चुरादिगणस्य इदानीम् अहं तत्र चाट् मध्ये प्रेषितवान्, पश्यतु लिङ्क् प्रेषितवान् नास्ति वा तत्र? अस्तु अस्तु, अहं प्रेषयामि इदानीं, पुनः प्रेषयामि, प्रायः भवती अनन्तरम् आगतवती प्रायः, इदानीं पश्यतु प्राप्तं वा चाट् मध्ये?
चाट् मध्ये प्राप्तं, चुरादिगणे धातु निच् सत्यापपाश
इतोपि अधः, इतोपि अधः
औपदेशदातवः आतिदेशदातवः अचोन्यति, क्षम्यतां महोदय, अचोन्यति अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति णिति णिति प्रत्यये परे, येन विधिस्तदन्तस्य इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् इत्यङ्गस्य अपि तु अजन्तङ्गस्य अङ्गस्य अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः, न च नौ नौ इतौ यस्य तत् मित् तस्मिन् मिति द्वन्द्वगर्भ बहुव्रीहिसमासः, अचः षष्ट्यन्तं मिति सप्तम्यन्तं द्विपदमिदं सूत्रम्, मृजेर्वृद्धि इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः निधि अच् अङ्गम् अस्ति चेत् अजन्तम् अस्ति चेत् निति अथवा निति प्रत्यये परे निच् इति निति निति उदाहरणं गै प्रत्यय निति एतादृशप्रत्ययः परे वृद्धिः भवति इति निति परे वृद्धिः भवति अजन्तङ्गस्य अजन्तम् इत्युक्ते अङ्गस्य अन्तिम वर्णं येन विधि सदन्तस्य इति सूत्रेण न केवलम् अच् अङ्गस्य अन्तिमवर्णस्य अन्तिमवर्णम् अच् चेत् अपि वृद्धिः भवति
तादृश अङ्गं यस्य अन्ते अच् वर्णः अस्ति परन्तु कुत्र भवति अलोन्तस् इति सूत्रेण तत्र अन्तिमवर्णस्य स्थाने एव भवति येन विसर्जति येन येन विशेषणेन यत् विशेषणविशेषभावः अस्ति चेत् तस्य एतत् विशेषणस्य तत्र अन्तिम तस्य अन्ति तादृश अङ्गस्य अन्तिमवर्णस्य अलोन्तस् इत्यनेन अन्तिमवर्णस्य एव भवति वृद्धिः भवति इति अचः अङ्गस्य अच् इत्युक्ते अत्र अत्र पश्यतु इत्यस्य किमर्थं न भवति भवितुमर्हति अचोर्णिति पश्यतु अत्र सार्धकार्धतयो इत्यनेन गुणः भवितुमर्हति खलु आगत्कपत्य अस्ति पश्यतु ची योग इ इति अस्ति इ पश्यतु अग्रे ची इति योग इ इति अस्ति इदानीं ची योग इति आगत्कपत्य अस्ति निच्
अस्तु अस्तु निच् आर्धधातुकप्रत्यये
भवति वा चे भवति वा किमर्थम् इति चेत् साधातुकयो आतत्कयो इति सप्तमाध्याय तृतीयपादस पदसूत्रमस्ति एतद् पूर्वसूत्रमस्ति अतः किमस्ति तत्र वयं दृष्टवन्तः खलु सूत्राणां बलाबलं पूरपरनित्य अन्तरङ्ग अपवादनम् उत्तरोत्तरं बलीयः इति परसूत्रमस्ति चेत् पूर्वसूत्रात् बलवत्तरम् अस्ति अतः किमर्थं न भवति इति प्रश्नः भवति इदानीं किमर्थम् इति 7384 अस्ति एतत्तु 72115 पूर्वसूत्रमस्ति अतः साधकार्धतयो इत्यस्य बलवत् तत्र बलवत्तम् अधिक तस्य सूत्रस्य बलः अधिकं स्यात् बलमधिकं स्यात् परन्तु न भवति किमर्थम् इति चेत् अत्र अपवादत्वेन भवति अपवादबलेन भवति परन्तु तत्र प्रश्नः अस्ति इति अचः अङ्गस्य वृद्धिः इति परन्तु सार्धकात्मकयो इत्यनेन केन भवति इगन्तङ्गस्य खलु अत्र इगन्तङ्गस्य इति अच् इति अस्ति इक् परन्तु अत्र अच् सर्वेश्वरः सन्ति अतः अन्यत्र अन्यत्र लब्धावकाशः अस्ति खलु किमर्थं तथापि किमर्थं न भवति इति अस्ति प्रश्नः भवति परन्तु तत् उत्तरम् अग्रे प्राप्स्यते तत्र अतोलोप इत्यनेन तत्र अतोलोप इत्यनेन तत्र अदन्ताङ्गस्य अत्रापि अचोणिति इत्यस्य कार्यं न भवति अतः अन्यसूत्रमपि बाधयति अतः अचोणिति इति अपवादसूत्रं भवति अन्ततो गत्वा इदानीं न वक्तुं शक्नुमः यथा अतोलोपः इति सूत्रं पठेम तदा वयं ज्ञातुं शक्नुमः यत् अचोर्णिति इति सूत्रं तत्र अपवादभूतसूत्रं भवति किमर्थमिति चेत् यदि अत्र न कार्यं करोति चेत् कुत्रापि अन्यत्र तस्य अवकाशः न भवति अतः अन्यत्र अर्थावकाशः न भवति इति कृत्वा तस्य अपवादपदेन यद्यपि पूर्वसूत्रमस्ति तस्य कार्यं भवति इति अस्ति अग्रे पठेम इदानीम् अग्रे पठतु तत्र उत्तरमस्ति
चाययति अत्र प्रश्नः उदे
न कथं भवति चै इति
अचोमिति इति इ इति निच् प्रत्ययः नकारस्य इत्संज्ञा अतः निच् भवति अचोमिति इति सूत्रेण अच् अङ्गस्य वृद्धिः भवति
तर्हि आ इति कथं भवति चाय् इति भवति चै एव इति अत्र
एचो यवायावः इति सूत्रेण ऐकारस्थाने अय आदेशः च क्षम्यताम् चै ऐ अस्ति ऐकारस्थाने आय् आदेशः चायि
अत्र चि यो योगः ईकारः अस्ति खलु तत्र चि ह्रस्व ईकारः अस्ति अनन्त अत्र सार्वधातुः आर्धधातुः योने एव कार्यं करोति खलु
अत्र अतैव उक्तवान् अपवादभूतम् अपवाद अचोर्णित् इति सूत्रं यद्यपि पूर्वसूत्रमस्ति अपवादसूत्रमस्ति किमर्थमिति अन्यत्र अर्धावकाशः न भवति इति अस्ति इति अग्रे पश्यामः अन्यत्र अर्धावकाशः न भवति इति कथं भवति अत्र पश्यतु अचः इति अत्र कार्यक्षेत्रं तत्र किञ्चित् बृहत् अस्ति सर्वदातुः इति इगतङ्गस्य इक् प्रत्यारस्य एव भवति इदानीम् अत्र अच् इति अस्ति इतोपि अन्यत्र भवितुम् अर्हति परन्तु भिन्नसूत्रेण तत्र अन्यत्र तत्र किं भवति तत्र एतत् अचोटिति कार्यं कर्तुं न शक्यते यद्यपि अचः इति अस्ति परन्तु तत्र कार्यं तत्र न भवितुम् अर्हति अतः एतत् अपवादबलेन एव कार्यं करोति अतः सर्वत् खादतु आदत्वयोः इति सूत्रं न अत्र कार्यं न करोति
अत्र प्रश्नः उदेति यत् चीयोगे ई इत्येतादृशेषु प्रसङ्गेषु सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः नास्ति किम् अस्त्येव किन्तु अचोमिति तु तस्य बाधकसूत्रं यतोहि सार्वधातुक आर्धधातुकयोः अत्र कार्यं करोति चेत् अचोमिति इत्यस्य अन्यत्र लब्धावकाशो न स्यात् देयं यत् यत्र यत्र अकारान्तधातुतः आर्धधातुकप्रत्ययः भवति यथा कथयोगे निच् तत्र अथो लोपः इत्यनेन अदन्ताङ्गास्य ह्रस्व अकारलोपे भवति येन अचोङ्यति इत्यस्य प्रसक्तिर्नास्ति अतः अचोङ्यति इति अत्र अपवादभूतसूत्रम्
अत्र पश्यतु कथायुगणिच् अस्ति पश्यतु कथायुगणिच् अस्ति साधत् खादतु इत्यस्य प्रसक्तिः नास्ति अत्र अतः कथायोग अच् इति अस्ति कथ इति अकारः अस्ति अतः निच् इति अस्ति तत्र अकारस्य वृद्धिः भवितुमर्हति खलु आकारः परन्तु तत्र अतोलोप इति सूत्रम् आगत्य तत्र कार्यं करोति आदत्तप्रत्यये पदे तत्र अकारान्ताङ्गस्य तत्र लोपः भवति तत् अकारस्य लोपः भवति इति अस्ति तदपि अपवादसूत्रमस्ति अतः तत्र यदि अत्र न कार्यं करोति अत्र अकारस्य अदन्ताङ्गस्य अपि कार्यं न कर्तुं शक्यते अचोर्णिति सूत्रस्य अतः एव तत्र साधारणतयो इत्यस्य अपवादसूत्रम् इति वदामः अतोलोप इत्यनेन एव अतोलोपः अपि च साधारणतयोः इति सूत्र क्षम्यताम् अतोलोप अपि च सर्वत्रातयो इति सूत्रद्वयेन तत्र अचोर्णिति कार्यं कर्तुं न शक्यते अन्यत्र अतः अपवादसूत्रेण अपवादबलेन अचोर्णिति एव कार्यं करोति इति अस्ति अत्र अवगतं वा
जि एकः प्रश्नः अत्र क्षी योगः ईकारः अस्ति खलु तत्र मृजद्वृद्धिः इति सूत्रेण क्षयि भवति वा एतदपि न भवति वा
किं वदति मृजर्विन्दि मृज् धातो कृते एव मृज् धातो मास्ति इति भवति तत्र मार्च् इति भवति तत्र वयं दृष्टवन्तः खलु मृज् धातोः मार्च् तद् न केवलं वृद्धिः इति पदस्य तत्र अनुवर्तनम् अस्ति अनुवृत्तिः अस्ति वृद्धिः इति मृजेर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः 114 खलु पूर्वसूत्रात् अनुवृत्ति अचोर्णिति अङ्गस्य अचः अङ्गस्य वृद्धिः इति वृद्धिः इति पदं पूर्वसूत्रात् तत्र तस्य अनुवर्तनम् अस्ति तावदेव अत्र तेन सूत्रेण न भवति चि इत्यस्य वृद्धिः भवति इति
सूत्रं
हा नित् अस्ति णिच् इति णित् अस्ति इति कृत्वा अचोर्णिति इति कार्यं करोति अस्तु अतः एतदेव अवगन्तव्यम् अस्माभिः अचोर्णिति इति सार्वधातुक इत्यस्य किमस्ति अपवादसूत्रमस्ति इति अस्तु अग्रे धन्यवादः भगिनि अग्रे इदानीम् अत्र अङ्क पठति इदानीं तत्र अस्तु निरञ्जनभगिनी अग्रे पठति वा
पठामि महोदय श्रूयते
श्रूयते
अत उपधायाः उपधायाम् अतः वृद्धिः इति णिति प्रत्यये परे अतः षष्ठ्यन्तम् उपधायाः षष्ठ्यन्तं द्विपदम् इदं सूत्रं मुजेर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अचोणिति इत्यस्मात् णिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य उपधायाः अतः वृद्धिः णिति चल् योग इ चालि चालयति अत्र अत उपधाया इत्यनेन धातोः उपधायाम् अतः अकारस्य नित्यित् प्रत्यये परे वृद्धिः भवति तत्र चल् योग तत्र चकारस्य परे अकारः अस्ति तत्र तस्य वृद्धिः भवति तत्र चालयति भवति चल योग इ णिच् तस्य नकारस्य चकारस्य इच्छन्या भवति इ अवशिष्यते चालि चालयति इति रूपं भवति चाले चालयति सार्वधातुकार्धपुगन्तलघु लघुपदस्य च सार्वधातुके अर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघुपदस्य च एकः गुणः भवति पुक् अन्ते यस्य तत् पुगन्तं लघ्वी उपधायस्य तत् लघुपदं पुगन्तश्च पुगन्तञ्च लघुपदञ्च तयोः पुगन्तलघुपदं समाहारद्वन्द्वः तस्य पुगन्तलघुपदस्य पुगन्तलघुपदस्य षष्ठ्यन्तं पदं च अव्ययपदं द्विपदमिदं सूत्रम् मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुकार्धतव्योः इत्यस्य पूर्णानुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धिः इत्यस्मात् परिभाषासूत्रात् इकः आयाति यत्र स्थानि न उक्तम् अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च इत्यनेन पुगन्तस्य अङ्गस्य तथा लघुपदस्य च सार्वधातुक अर्धत्वे प्रत्यये परे इकः गुणः भवति उपधायाम् इक् वर्णस्य गुणः भवति सार्वधातुक अर्धत्वे प्रत्यये परे उदाहरणमस्ति चूर योग इ तत्र चोरी भवति चोरयति चु उकारस्य गुणः भवति चोरी भवति चोरयति तत्र नीच भवति तत्र चोरे चोरी चोरे चोरयति भवति चोरे चोयवायः इत्यनेन चोरयति भवति पठामि महोदय चुर् भूवादयो धातवः इत्यनेन चुर् इत्यस्य धातुसंज्ञा भवति चुर् योगणि चुटु हलन्त्यं तस्य लोपः अनुबद्धलोपः तत्र इ अवशिष्यते चुर् योग इ पुगन्तलघुपदस्य च उपधायां लघु इकः गुणः आर्धधातुकप्रत्यये परे तत्र चोरि सनादिनिस्तधातवः इति सूत्रेण चोरि इत्यस्य धातुसंज्ञा भवति तदनन्तरम् एकवारं निच्छसहितधातुः निष्पन्नः तदा कर्तृथक् सार्वधातुकप्रत्यये परे कर्तरि शप् इत्यनेन शप् विकरणप्रत्ययः विधीयते चोरि योग शप् चोरि योग अ अवशिष्यते सार्वधातुकार्धतयोः इत्यनेन इकः गुणः तद् चोरे भवति चोरे योग अ एचो यवायावः इत्यनेन अचि परे ए स्थाने अय आदेशः भवति चोर् योग अय् योग अ चोरय इति अदन्तम् अङ्गं निष्पन्नम् कर्तरि शप् धातुतः शप् प्रत्ययः भवति कर्तर्थक् सार्वधातुकप्रत्यये परे कर्तरि सप्तम्यन्तं शप् प्रथमान्तं द्विपदमिदं सूत्रं सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः धातोरेका च हलादेः क्रियासमभ्याहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके तदनन्तरं कर्तरि शप् तथा धातुतः शप् प्रत्यय भवति सार्वधातुकप्रत्यये परे कर्तर्थम् इतः अग्रे सिद्ध अतः अग्रे सिद्धतिङ्गप्रत्ययानां संयोजनं भवति यथा भ्वादिगणे दिवादिगणे तुदादिगणे च तथा चोरय इति अङ्गं निष्पन्नमस्ति तत्र चोरयोगति चोरयति इति इत्यादिकं
धन्यवादः अतः वयं जानीमः अनन्तरं सामान्यतः यथा भुवादिगणीय इतिवत् भवति इति अस्तु अत्र एव स्थगयामः प्रश्नार्थं पृच्छति अस्तु ॐ सर्वे भवन्तः सुखिनः सर्वे सन्धिनामय सर्वे भद्राणि पश्यन्तु मा कश्चित्
धन्यवादः धन्यवादः इण्डियन् टैम् 4:30 एव वा पूर्वं
सत्यं
ऐ मिस्ड् इट् ऐ एम् रियलि सारि दट् इस् वै
क्षम्यतां ओके 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 4:30 भवति किमपि परिवर्तनं नास्ति अस्तु
अस्तु अस्तु धन्यवादः
धन्यवादः धन्यवादः
क्षम्यताम्
अस्तु सिद्धं